एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण प्रतिवेशिना चीनदेशेन सह हस्ताक्षरितायाः वीआरआई परियोजनायाः प्रारूपं सार्वजनीकृतमस्ति। परराष्ट्र मन्त्रालयेन ह्य वेब सञ्जालस्य माध्यमेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन भ्रमणस्य क्रमे गत मार्गशीर्षमासस्य ऊनविंशे दिवसे द्वयोः देशयोः मध्ये सम्भूतायाः सहमत्याः वीआरआई परियोजनायाः क्रियान्वयनस्य प्रारूपं सार्वजनीकृतमस्ति। प्रारूपे परियोजनायां निवेशन समये द्वयोः देशयोः आवश्यकतायाः अनुसारेण सहयोगस्य वित्तसीमा निर्धारयिष्यते इति उल्लिखितमस्ति। उभय देशाभ्यां प्राविधिकस्य वित्तव्यवस्थायाः व्यावसायिकस्य आर्थिकस्य च सम्भाव्यतायाः वस्तुनिष्ठं विश्लेषणं विधाय प्राथमिकतायां विद्यमानानां परियोजनानां कृते वित्तविनियोजनस्य विषयः प्रारूपे समाविष्टोऽस्ति। प्रारूपान्तर्गतं 10 परियोजनाः समाविष्टाः वर्तन्ते। तेषु टोखा छहरे गुहा मार्गः, हिल्सा सिमिकोट मार्ग परियोजना, किमाथाङका खादबारी मार्गः, किमाथाङका सेतुः, आईसीपी परियोजना, चीन नेपाल सीमा पार रेल मार्ग परियोजना, अमरगढ़ी नगरीय सभा कक्ष परियोजना, जिलोङ र सुवागढ़ी चिलिमे 65-200 केभी पारे सीमा प्रसारण मार्ग, मदन भण्डारी विश्वविद्यालय, काष्ठमण्डप वैज्ञानिक केन्द्रम, विज्ञान संग्रहालय इत्याद्य विषयाः वर्तन्ते। सत्तारूढेन नेकपा एमाले दलेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन भ्रमणं सफलतापूर्वकं सम्पन्नम् इति निष्कर्षेण धन्यवादः व्यक्तोऽस्ति। ह्यः च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टेन सचिवालयोपवेशेन चीन भ्रमणे प्रधानमन्त्रिणा ओलिना वीआरआई परियोजनायां संविधान विधाय परियोजनायाः अग्रेसारणाय सफलता अधिगता अस्ति इति उक्तं वर्तते। उपवेशानन्तरम् उपमहासचिवः प्रदीप गेवाली उपवेशे प्रधानमन्त्रिणः चीन भ्रमणस्य समीक्षा सम्भूता अस्ति इति असूचयत्। उपमहासचिवः गेवाली नेपाल चीन देशयोः सम्बन्धे विद्यमानस्य प्रभावस्य समीक्षणे विहिते भ्रमणं सफलं सञ्जालमस्ति इति अभाषत। वीआरआई परियोजनायां सम्भूता संविधान नेपालस्य दीर्घकालिक विकासाय महत्वपूर्णा उपलब्धि अस्ति इति एमाले दलस्य निष्कर्षो वर्तते। उपवेशेन सम्प्रत्येव सम्पन्नस्य उपनिर्वाचनस्य समीक्षापि विहितास्ति। सभामुखः देवराज घिमिरे निगदति मानवाधिकाराणां रक्षायै सदनं सदैव तत्परमस्ति। 67वें राष्ट्रिय मानवाधिकार दिवसस्य अवसरे प्रधानमन्त्री मन्त्री परिषदः कार्यालयेन ह्यः आयोजिते कार्यक्रमे सभामुखः घिमिरे मानवाधिकाराणां रक्षायै सर्वकारेण सदैव संवेदनशीलेन भाव्यम् इत्यत्र बलं प्रादात्। राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्षः तपबहादुर मगरः सर्वकारात् मानवाधिकारस्य संरक्षणाय महत्वपूर्णः प्रयास जायमानः सन्तीति चर्चयन् अतः परमपि मानवाधिकाराणां संरक्षणाय सर्वहि संलग्नैर्भाव्यमिति अगदत्। कार्यक्रमे मुख्य सचिवः एक नारायण अर्यालः त्रयाणामेव स्तराणां सर्वकारैः सांविधानिक निकायैः अन्यैः च सर्वैः मानवाधिकाराणां संरक्षणाय बलं दत्तमिति प्रावोचत्। अन्तर्राष्ट्रिय मानवाधिकार दिवसस्य अवसरे ह्य सिंहप्रासादे जलपान समारोहः आयोजितः आसीत्। 67वें राष्ट्रिय मानवाधिकार दिवसस्य अवसरे राष्ट्रिय मानवाधिकार आयोगेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः मानवाधिकाराणां रक्षायै सर्वकारः निष्ठापूर्वकं कार्यं विदधानोऽस्ति इति अवोचत्। कार्यक्रमे अर्थमन्त्री पौडेलः मानवाधिकार आयोगस्य भूमिकाम् अधिकं प्रभावकारिणीं विधातुं सर्वकारः क्रियाशीलो वर्तते इति अगदत्। मानवाधिकार दिवसस्य अवसरे मानवाधिकार शान्ति समाजेन ह्य आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा एकस्मिन् आर्थिक वर्षे 5 लक्षेभ्य जनेभ्य वृत्त्युपार्जनस्य व्यवस्था कर्तव्येति अगदत्। महामन्त्री थापा यूनां पलायनं रुद्धुं देशे वृत्त्युपार्जनस्य व्यवस्था करणीया इति उदैरयत्। नेकपा एकीकृत समाजवादी दलस्य स्थायी समितेः उपवेशः अद्यतः प्रारभते। दलस्य सांगठनिक गतिविधयः जनपदानां प्रदेशानां च अधिवेशनम्, स्थानीयस्तरस्य उपनिर्वाचनस्य समीक्षा, देशस्य सामयिक राजनीतिः, नेतृणां कार्यविभाजनम् चेति विषयेष् विमृष्टुम् उपवेशः आहूतोऽस्तीति उपमहासचिवः रामकुमार भट्टराय असूचयत्। गतषाढमासे दशमराष्ट्रिय महाधिवेशने विहितवता एकीकृत समाजवादी दलेन अधुनावधि नेतृणां कार्यविभाजनान्तर्गतं विभिन्नः विभाग प्रमुखः, जनपद इन्चार्ज पदीयः, आयोगानां जनसंघटनानां च प्रमुखाश्च नियुक्तः न सन्ति। उपवेशः श्व यावत् चलति। रौतहट जनपदस्य चन्द्रपुर नगरपालिकान्तर्गतस्य पूर्व पश्चिम राजमार्गस्य धनसार लमाहा मार्गखण्डे ह्य स्कार्पियो जीपयानस्य दुर्घटनायाम् अष्टौ जनाः मृताः सन्ति। चन्द्रपुरे पूर्व पश्चिम राजमार्गे गढिमाई देव्यः दर्शनानन्तरं सिराह जनपदं प्रति प्रस्थीयमानं जीपयानम् अनियन्त्रितं सत् मार्गस्य वृक्षे घर्षणानन्तरं दुर्घटनाग्रस्तमासीत्। दुर्घटनायां सिराह जनपदस्य अर्नामा ग्रामपालिकायाः तृतीय ओडा क्षेत्रस्य बछियाटोल वसतेः षष्ठीवर्षीया लरुदेवी महरा, त्रिंशत् वर्षीया उर्मिला महरा, पञ्चाशत् वर्षीया रामकुमारी महरा, पञ्चपञ्चाशत् वर्षीया महगी देवी महरा, द्वाषष्ठी वर्षीया फूलमन्ती देवी चमार, षष्ठी वर्षीया रामकुमारी देवी महरा, त्रिंशत् वर्षीया शकुन्तला देवी महरा, चत्वारिंशत् वर्षीयो यान चालकः श्रीकुमार यादवश्च मृतः वर्तन्ते इति प्रहरिणा ज्ञापितमस्ति। दुर्घटनायाम् आहतानां पञ्चानां जनानाम् उपचारः जायमानोऽस्ति इति प्रहरिणा ज्ञापितम् वर्तते। प्रधानसेनापतिः अशोकराज सिग्देलः भारतं प्रस्थितो वर्तते। भारतस्य स्थलसेनाध्यक्षस्य उपेन्द्र द्विवेदिनः औपचारिक निमन्त्रणायां प्रधानसेनापतिः सिग्देलः ह्य नयादिल्लीस्थानाय प्रस्थितो वर्तते। प्रधानसेनापतिना अस्यैव मार्गशीर्ष मासस्य षड्विंशं दिवसं यावत् भारतस्य औपचारिक भ्रमणस्य कार्यक्रमोऽस्तीति नेपाली सेनायाः जनसम्पर्क सूचना निर्देशनालयेन ज्ञापितं वर्तते। हुम्ला जनपदे रविवासरस्य रात्रितः सोमवासरं यावत् नैरन्तर्यस्य हिमपातस्य कारणेन सिमकोट विमानस्थले एकीभूतस्य हिमस्य अपसारणानन्तरं ह्यः विमानसेवा सञ्चालिता अस्ति। नेपाल प्रहरी सशस्त्र प्रहरी बलादिभिः सुरक्षाकर्मिभिः मिलित्वा हिमस्य अपसारणानन्तरं विमानसेवा सञ्चालितेति नागरिकोड्डयन प्राधिकरणस्य हुम्ला जनपदस्य प्रमुखः महेन्द्र सिंह अज्ञापयत्। जलवायुरनुकूलानन्तरं ह्यः प्रातःकालादेव विमानस्थलं सञ्चालितमिति प्रमुखः सिंह असूचयत्।